सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति लृट् लकारः इत्युक्ते भविष्यत्कालरूपः रूपं. तत्र गतवर्गे वयं किञ्चित् अभ्यासं कृतवन्तः परस्मैपदी धातूनां. बहु किमपि जातम् इति मन्ये, किन्तु आत्मनेपदी धातूनां किञ्चित् अभ्यासः वयं कृतवन्तः. तदेव एकवारं तत्र पुनस्मरणं कृत्वा तत्र अभ्यासम् अस्ति तदपि कृत्वा अद्य एकां कथां पठितुमपि शक्नुमः इति मन्ये. तत्र तदा किं किं भविष्यति इति एका कथा अस्ति, तां कथामपि अद्य पठितुं शक्नुमः इति मन्ये. अस्तु, प्रथमतया तत्र रूपं लृट् लकारस्य रूपं कीदृशम् इति पश्यामः. तत्र शुभा भगिनी, तत्र चलति इति चल् धातोः रूपम् एकवारं पठति वा?
चलिष्यति, चलिष्यतः, चलिष्यन्ति, चलिष्यसि, चलिष्यतः, चलिष्यथ, चलिष्यामि, चलिष्यावः, चलिष्यामः.
हा इति समीचीनं भगिनि. हा अस्तु, वेणुगोपाल महोदय तत्र अग्रिमम् एकवारं पठति वा गम् धातोः?
आम् महोदय. गमिष्यति, गमिष्यतः, गमिष्यन्ति, गमिष्यसि, गमिष्यतः, गमिष्यथ, गमिष्यामि, गमिष्यावः, गमिष्यामः.
हा समीचीनं. अरुणा भगिनी नमस्कारः.
नमस्ते महोदय.
नमस्कारः. मधुसूदन महोदय नमस्कारः. तत्र लृट् लकारः पेज् 111.
धन्यवादः.
अस्तु, तत्र उषा भगिनी तत्र परस्मैपदी दृश् धातोः रूपाणि पठति वा?
द्रक्ष्यति, द्रक्ष्यति, द्रक्ष्यतः, द्रक्ष्यन्ति, द्रक्ष्यसि, द्रक्ष्यतः, द्रक्ष्यथ, द्रक्ष्यामि, द्रक्ष्यावः, द्रक्ष्यामः.
हा इति समीचीनं. हा अरुणा भगिनी, तत्र अग्रे करिष्यति इति अस्ति, तत्र सः इति उपयुज्य तदनन्तरं त्वम् अपि अहम् इति. पेज् 111 मध्ये परस्मैपदी कृ धातुः करिष्यति इति अस्ति, सः करिष्यति इति वदतु भगिनि. तत्र
सः करिष्यति, तौ करिष्यतः, ते करिष्यन्ति, त्वं करिष्यसि, युवां करिष्यतः,
यूयं
करिष्यथ, अहं करिष्यामि, आवां करिष्यावः, वयं करिष्यामः.
हा समीचीनं भगिनि. अस्तु, मधुसूदन महोदय अग्रे तत्र करिष्यते इति अस्ति, तत्रापि सः इति उपयुज्य वदति वा महोदय?
सः करिष्यते, तौ करिष्यते,
करिष्यते,
करिष्यते, ते करिष्यन्ते, त्वं करिष्यसे, युवां करिष्येते, यूयं करिष्यन्ते, करिष्यद्वे, अहं करिष्ये, आवां करिष्यामहे, वयं करिष्यामहे.
हा समीचीनं महोदय. अस्तु, तत्र उषा भगिनी इदानीं तत्र गम् धातुः तत्र सः ग्रामं गमिष्यति इति वदति वा?
सः ग्रामं गमिष्यति, तौ ग्रामं गमिष्यतः, ते ग्रामं गमिष्यन्ति, त्वं ग्रामं गमिष्यसि, युवां ग्रामं गमिष्यतः, यूयं ग्रामं गमिष्यथ, अहं ग्रामं गमिष्यामि, आवां ग्रामं गमिष्यावः, वयं ग्रामं गमिष्यामः.
हा समीचीनं भगिनि. अस्तु, शुभा भगिनी तत्र द्रक्ष्यति इति, तत्र सः वनं द्रक्ष्यति.
आं महोदय. सः वनं द्रक्ष्यति, तौ वनं द्रक्ष्यतः, ते वनं द्रक्ष्यन्ति, त्वं वनं द्रक्ष्यसि, युवां वनं द्रक्ष्यतः, यूयं वनं द्रक्ष्यथ, अहं वनं द्रक्ष्यामि, आवां वनं द्रक्ष्यावः, वयं वनं द्रक्ष्यामः।
हा समीचीनं भगिनी, धन्यवादः। अस्तु वेणुगोपाल् महोदय, तत्र करिष्यति इति अस्ति, तत्र सः कार्यं करिष्यति,
सः कार्यं करिष्यति, तौ कार्यं करिष्यतः, ते कार्यं करिष्यन्ति, त्वं कार्यं करिष्यसि, युवां कार्यं करिष्यतः, यूयं कार्यं करिष्यतः, अहं कार्यं करिष्यामि, आवां कार्यं करिष्यावः, वयं कार्यं करिष्यामः।
हा इति समीचीनं महोदय, अस्तु धन्यवादः। नूतनतया कोऽपि आगतवान् अथवा आगतवती वा?
नमस्ते महोदय, अहं रघुपति आचार्य।
ओ रघुपति महोदय, नमस्कारः, स्वागतम्। हा अस्तु महोदय, चिन्ता मास्तु महोदय। अस्तु तर्हि तत्र पुनस्मरणं जातं, तत्र इदानीं तत्र अन्येषां धातूनामपि एकवारं तत्र किञ्चित् एव अभ्यासं कुर्मः। तत्र अग्रिमे पुटे 112 मध्ये तत्र हा रघुपति महोदय, तत्र दास्यति इति अस्ति अग्रिमे पुटे, तत्र एकवारं वदति वा रूपाणि, इदानीं विशेषरूपाणि एतत्।
ओके, दास्यसि,
दा धातुः, दास्यति,
दा धातु, हा दास्यति अस्ति, दास्यति, दास्यते इति भवति।
हा तत्र उभयपदी अस्ति, केवलं परस्मैपदीरूपं कुर्मः तत्र।
किं करणीयम् इति महोदय इदानीं?
नवरूपाणि वदनीयं, वक्तव्यम्।
दास्यति, दास्यतः, दास्यन्ति, दास्यसि, दास्यतः, दास्यथ, दास्यामि, दास्यावः, दास्यामः।
हा इति अस्तु। तत्र हा पुनः उषा भगिनी तत्र पृच्छति इति तत् करोति वा?
प्रक्ष्यति, प्रक्ष्यतः, प्रक्ष्यन्ति, प्रक्ष्यसि, प्रक्ष्यतः, प्रक्ष्यथ, प्रक्ष्यामि, प्रक्ष्यावः, प्रक्ष्यामः।
हा समीचीनं भगिनि, अस्तु। अरुणा भगिनि, तत्र ज्ञादातुः ज्ञास्यति इति?
ज्ञास्यसि, ज्ञासतः, ज्ञास्यन्ति, ज्ञास्यसि, ज्ञासतः, ज्ञास्यथ, ज्ञास्यामि, ज्ञास्यावः, ज्ञास्यामः।
समीचीनं भगिनि, अस्तु। अग्रे मधुसूदन महोदय, शक् शक्ष्यति इति?
महोदय, शक्ष्यति, शक्ष्यति, शक्ष्यतः, शक्ष्यन्ति, शक्ष्यसि, शक्ष्यतः, शक्ष्यथ, शक्ष्यामि, शक्ष्यावः, शक्ष्यामः।
हा इति समीचीनम्, अस्तु। शुभा भगिनी, तत्र क्रेष्यति इति क्रीधातुः?
क्रेष्यति, क्रेष्यतः, क्रेष्यन्ति, क्रेष्यसि, क्रेष्यतः, क्रेष्यथ, क्रेष्यामि, क्रेष्यावः, क्रेष्यामः।
हा इति समीचीनम्। श्रीप्रिया भगिनी नमस्कारः।
नमस्कारः महोदय, क्षम्यता।
हा चिन्ता मास्तु भगिनि, पेज् 112 मध्ये स्मः, पेज् 111 मध्ये लृट्लकारः, पेज् 112 मध्ये विशेषरूपाणि। अत्र हा पेज् 111 तत्र पश्यतु, गतवर्गे अपि अस्मिन् विषये किञ्चित् चर्चां कृतवन्तः। तत्र एकं रूपं सर्वे तत्र पेज् 111 मध्ये चलिष्यति, चलिष्यतः, चलिष्यन्ति, अपि चलति, चलतः, चलन्ति, चलसि, चलतः, चलत, चलामि, चलावः, चलामः, समानरूपम् अस्ति, केवलं मध्ये किम् अस्ति, अन्तिमभागं तु लट्लकारं रूपमेव, किन्तु मध्ये किम् अस्ति? इष्य इति अस्ति। अपि इदानीं तत्र रघुपतिमहोदय कृतवान् यत्र तत्र धा धातोः धास्यति इति, तत्र धास्यति, दास्यतः, दास्यन्ति, दास्यसि, दास्यतः, दास्यत, दास्यामि, दास्यावः, दास्यामः। तत्र लृट्लकारे किं भवति, स्यकारः मध्ये आगच्छति, तावदेव लट्लकाररूपस्य मध्ये स्य इति मध्ये आगच्छति। अतः एकस्य रूपं जानीमः, तत्र चलति इति स्थाने चलिष्यति इति जानीमश्चेत् अन्यानि रूपाणि वयं वक्तुं शक्नुमः. चलत्सि इति स्थाने चलिष्यसि इति अस्ति चेत् तद् दृष्ट्वा अन्यानि रूपाणि अपि वयं वक्तुं शक्नुमः. तत्र स्यकारः मध्ये आगच्छति, तत्र धास्यति, ज्ञादतुः ज्ञास्यति इति तादृश. किन्तु कुत्रचित् तत्र पट् धातोः रूपं तत्र मध्ये दत्तमस्ति, पठिष्यति. अपि चलति इति स्थाने किं भवति, चलस्यति इति नास्ति, चलिष्यति इति अस्ति. अतः तत्र रूपद्वयं भवति, तत्र स्यकारः मध्ये आगच्छति, कुत्रापि ईकारः अपि आगच्छति. तद् तस्य नाम अस्ति ईडागमः इति. व्याकरणवर्गे गच्छन्ति चेत् तत्र ईडागमः सेट् अनिट् इति तादृश भवति. तत्र केवलम् इदानीं अस्माकं चिन्तनम् एतत् पर्याप्तं. तत्र यकारः मध्ये आगच्छति, लट्लकाररूप एव अन्ते अस्ति, किन्तु तस्य पूर्वं स्यकारः आगच्छति, किन्तु कुत्रापि ईकारः अपि आगच्छति इति. तावदेव तत् प्रथमः अंशः. तत्र लृट् लकारविषये रूपाणि एकं रूपं ज्ञात्वा अन्यानि रूपाणि कर्तुं शक्नुमः. तत्र स्यकारः, तत्र स्यकारः सर्वदा स्यकारः इति न दृश्यते. तत्र चलिष्यति इति तत्र श्यकारः अस्ति. अपि दृश् धातोः तत्र स्यकारः क्ष्यकारः भवति. किन्तु पिबति पास्यति इति अस्ति. समीचीनं भगिनि. अतः अपि रम् इति रंस्यते, मन् इति मंस्यते. तत्र स्य इति स्यकारः आगच्छति. किन्तु यदि धातु तत्र ईडागमः इति भवति, यदि अष्टाध्यायी मध्ये धातु इति रूपाणि पश्यन्ति चेत् तत्र कीदृशधातु इति किञ्चित् केचन अंशाः दत्तानि सन्ति. तत्र निट् अथवा सेट् इति तादृश अंशः तत्र भवति. तत्र ईडागमः भवति न वा इति तद् सूचयते. तत्र ज्ञास्यति स्यकारः अस्ति, तद् एकम् अस्ति. अन्यदपि अस्ति, तत्र यदि लृट् लकारस्य रूपं कीदृशं भवति इति, तत्र इकारः अस्ति वा न वा इति कथं निर्णेतुं शक्नुमः. अहं सर्वदा कर्तुं शक्नोमि इति न वदामि, किन्तु तत्र एकं वक्तुं शक्नुमः. तत्र धातोः तत्र वयं कृतवन्तः खलु तुमान्तरूपम् अपि तुमुन् रूपं. तत्र कृत्वा इति अस्ति, अपि कर्तुम् इति अस्ति. तत्र तुमुन् रूपं लृट् लकारस्य बहु समीपं भवति. अतः तुमुन् रूपं मनसि चिन्तयतु. यदि लृट् लकारं करणीयं चेत् तुमुन् रूपं चिन्तयतु. तद् सः एकः अंशः अस्ति. समीचीन यदि सुलभं भवति न वा पश्यामः. अस्तु, इदानीं तत्र किञ्चित् पुटसङ्ख्या 112 मध्ये एव वयं गतवर्गे कृतवन्तः. तत्र एकमेकं कुर्मः, परस्मैपदि धातु अपि आत्मनिपदि धातु, तदनन्तरं प्रथम अभ्यासः कुर्मः. तत्र लृट् लकारः अस्ति, शक्ष्यति इति. भानुचतनि महोदय शुभोदय. अस्तु, तत्र छल् इति तु कृतवन्तः. तत्र गम् इति अस्ति, क्रीड् इति अस्ति. अस्तु, खाद् इति प्रथमपुरुषः. तत्र उषा भगिनी, खाद् इति पेज् 112 मध्ये दत्तमस्ति. खाद् खादिष्यतः इति रूपं दत्तमस्ति. तत्र प्रथमपुरुषे रूपाणि वदति वा?
आं महोदय. खादिष्यति, खादिष्यतः, खादिष्यन्ति.
केवलं प्रथमपुरुष. अस्तु, वेणुगोपाल् महोदय, एतत् सर्वं पेज् 112 मध्ये अस्ति. तत्र खाद् अनन्तरं धाव् इति अस्ति, तत्र धाविष्यत इति रूपं दत्तमस्ति,
मध्यमपुरुषकरणं धाविष्यतः धाविष्यत।
हा समीचीनं महोदय। शिवा भगिनी तत्र अग्रे नम् इति दातु।
नंस्यामि, नंस्यावः, नंस्यामः।
हा समीचीनम्। अरुणा भगिनी अग्रे धृ दातुः।
धरिष्यति, धरिष्यतः, धरिष्यन्ति।
हा समीचीनं। मधुसूदन महोदय अग्रे हृ दातुः।
हरिष्यति, हरिष्यसि, हरिष्यतः, हरिष्यत।
हा इति समीचीनं। रघुपति महोदय अग्रे तत्र स्मृ दातुः, न मुद् मुद् दातुः, इदानीम् आत्मनेपदि।
मोदिष्यते, मोदिष्येते, मोदिष्यन् मोदिष्यन्ते।
हा समीचीनं महोदय। हा अस्तु, श्रीप्रिया भगिनी तत्र स्मृ दातुः। स्मरिष्यामि,
स्मरिष्यामि, स्मरिष्यावः, स्मरिष्यामः।
हा समीचीनं। हा बालचित्रि महोदय श्रूयते वा? न श्रूयते महोदय अत्र। अस्तु,
हरि ओं महोदय,
इदानीं श्रूयते, इदानीं श्रूयते। अस्तु, तत्र बद् धातुः प्रथमपुरुष लृट्लकाररूपं। हा
किं दातु महोदय?
बद् बद् धातुः वदिष्यति,
वदिष्यतः, वदिष्यन्ति।
हा तावदेव, समीचीनम्। अस्तु अस्तु, तर्हि एकवारं कृतवन्तः, तत् सर्वे जानन्ति इति मन्ये। इदानीं तत्र अग्रिमे पुटे प्रथम अभ्यासः कुर्मः। तत्र मधुसूदन महोदय आरम्भं करोति वा तत्र?
महोदय, एतेषु वाक्येषु
सत्यं महोदय, तदेव।
एतेषु वाक्येषु लट्लकाररूपाणां स्थाने लट्लकाररूपाणि प्रयुज्य वाक्यानि पुनः लिखत।
वाक्यानि पुनः लिखत। अवगच्छति वा महोदय तत्र किं करणीयमिति, कार्यं किम् इति?
लट्लकार इत्युक्ते
लट्लकार इत्युक्ते वर्तमानकाल,
वर्तमानकाल।
तस्मिन् स्थाने तत्र क्रियापदम् अस्ति लट्लकारे वर्तमानकाले, तद् निष्कास्य तस्य स्थाने लृट्लकाररूपं स्थापनीयम्।
उदाहरणं, सः गीताप्रवचनं शृणोति, सा गीताप्रवचनं श्रोष्यति,
श्रोष्यति,
सा
अद्य अद्य सा गीताप्रवचनं शृणोति, किन्तु श्वः सा गीताप्रवचनं
श्रोष्यति,
श्रोष्यति। समीचीनं खलु? अद्य शृणोति अथवा श्वः श्रोष्यति। अस्तु महोदय, प्रथमं
कृष्णः कदा अवतरति? कृष्णः कदा अवतरिष्यति?
अवतरिष्यति, हा अवतरितुम् इति प्रायश तुमुन् रूपम् अस्ति इति मन्ये, अवतरिष्यति इति। समीचीनं महोदय। तत्र रूपम् अवतरिष्यति द्विवचने बहुवचने किं किं भवति?
अवतरिष्यति, अवतरिष्यतः, अवतरिष्यन्ति,
अवतरिष्यन्ति। समीचीनं महोदय, अस्तु धन्यवादः। अस्तु अरुणा भगिनी अग्रे कं करोति वा अग्रिमे?
तौ गीताचार्यं नमतः। तौ गीताचार्यं नमिष्यति, नमिष्यतः, नमिष्यन्ति।
समीचीनं भगिनि। हा नम् अतः तत्र तौ गीताचार्यं रूपं किं भवति?
नमिष्यति,
तौ इति अस्ति, तौ इति अस्ति,
तौ गीताचार्यं नमिष्यति, तौ गीताचार्यं नमिष्यतः।
न किन्तु एकमेव समीचीनम् अस्ति खलु भगिनि, तौ इति अस्ति चेत् वचनं किं?
नमिष्यतः,
समीचीनं भगिनि. नौ इति अस्ति, अतः केवलं नंस्यतः इति एव. सः गीताचार्यं नंस्यति. तौ अस्ति चेत् नंस्यतः. समीचीनं भगिनि. अस्तु, वेणुगोपाल् महोदय अग्रिमं करोति वा?
यूयं भक्तियोगं यूयं भक्तियोगं पठिष्यथ.
पठिष्यत. समीचीनं महोदय. तत्र वचनं यदि युवाम् अस्ति चेत् किं भवति?
युवां पठिष्यतः.
त्वम् अस्ति चेत्
पठिष्यसि.
समीचीनं महोदय. उषा भगिनी अग्रे.
आं महोदय. योगिनः तत्त्वं पश्यन्ति. पश्यन्ति इति अस्ति, द्रक्ष्यन्ति. योगिनः तत्त्वं द्रक्ष्यन्ति.
एकवचने
द्रक्ष्यति, द्रक्ष्यतः, द्रक्ष्यन्ति इति.
समीचीनं भगिनि. अस्तु, शुभा भगिनी अग्रे.
वयम् अतः परं न भवामः. वयम् अतः परं न भविष्यामः.
वचनम्
उत्तमपुरुषरूपं भविष्यामि, भविष्यावः, भविष्यामः.
समीचीनं भगिनि. अस्तु, मधुसूदन महोदय भवान् उक्तवान् एकनिमिषं महोदय. अत्र रघुपति महोदय.
यूयं सेवानिमित्तमेव पाकं कुरुत.
न न, स्वनिमित्तमेव.
सोरि, सोरि, यूयं स्वनिमित्तमेव पाकं कुरुत. करिष्यति. यूयं स्वनिमित्तमेव पाकं करिष्यथ.
करिष्यत. यूयम् अस्ति. तत् मध्यमपुरुषः. वचनं किं?
यूयं, युवां, यूयम् इति बहुवचनमस्ति.
बहुवचनं. समीचीनं महोदय. करिष्यत.
करिष्यसि, करिष्यतः, करिष्यथ.
करिष्यत. समीचीनं महोदय. अस्तु, श्रीप्रिया भगिनी अग्रे.
महोदय, यूयमेव पाकं कुरुत्थ भवनीयं महोदय. कुरुत्थ तकारः
न.
तत्र
लोट् लकारे अस्ति महोदय. एतत् लोट् लकारे. कुरु, कुरुतं, कुरुत. आज्ञादेशे.
धन्यवादः.
समीचीनं भगिनि. अस्तु, श्रीप्रिया भगिनी अग्रे.
शस्त्राणि आत्मानं न छिन्दन्ति. शस्त्राणि आत्मानं न छेत्स्यन्ति.
समीचीनमेव इति मन्ये भगिनि. अस्तु, आत्मानं न छिन्दन्ति चेत् तत्र छेत्स्यन्ति इति तत्र एकवचने अथवा द्विवचने किं भवति? छेत्स्यन्ति. समीचीनं भगिनि. अस्तु, बाणचेतनी महोदय अग्रे.
महोदय, एकवारं पृष्टं किं महोदय?
तत्र 113 अष्टम आवां गीतां शृणुवः इति.
आवां गीतां शृणुवः. आवां गीतां श्रोष्यावः.
श्रोष्यावः. समीचीनं महोदय. तत्र एकवचने किं भवति?
अहं गीतां श्रोष्यामि.
वयम् अपि, वयं गीतां,
वयं गीतां श्रोष्यामः.
समीचीनं महोदय. अस्तु, अस्तु, तर्हि अग्रे उषा भगिनी.
आं महोदय. त्वं पापं न अनुभवसि. मध्यमपुरुषे अस्ति. त्वं पापं न अनुभविष्यसि.
तत्र इदानीं तत्र किम् अस्ति? तत्र भवसि इति रूपस्य लुट्लकाररूपं स्वीकृत्य पुनः
भविष्
उपसर्ग उपसर्ग किमपि
अनु
हा अनु इति उपसर्ग एव अस्ति तत् पुनः स्थापनीयम् अस्ति अतः उपसर्ग अस्ति चेत् किमपि परिवर्तनं न भवति खलु हा समीचीनं भगिनि अस्तु अतः त्वं पापं न अनुभविष्यसि समीचीनं भगिनि अस्तु हा अग्रे वेणुगोपाल् महोदय
कृष्णार्जुनौ सम्भाषणं कुर्वते कृष्णार्जुनौ सम्भाषणं करिष्यतः
न तर् तत्र तत्र करोति इति अस्ति महोदय तन्तु एतत् करोति इति नास्ति तत्र समीचीनं महोदय अस्तु करिष्यते इति आत्मनेपदीरूपं क्रोधात्तु दत्तमस्ति खलु अस्तु समीचीनं महोदय अस्तु समीचीनं हा शुभा भगिनी अग्रे
वयं कुरुक्षेत्रं गच्छामः वयं कुरुक्षेत्रं गमिष्यामः
हा समीचीनं भगिनि हा तत्र
अहं कुरुक्षेत्रं गमिष्यामि आवां कुरुक्षेत्रं गमिष्यावः वयं कुरुक्षेत्रं गमिष्यामः
समीचीनं भगिनि हा अस्तु अरुणा भगिनी अग्रे
आवां सैन्यविन्यासं पश्यावः आवां सैन्यविन्यासं द्रक्ष्यावः
समीचीनं भगिनि द्रक्ष्यावः समीचीनं तत्र तुमुन्नपि त्वान्तरूपम् अहं पूर्वम् उक्तवान् खलु तत्र दृष् धातोः त्वान्तरूपं किम् अस्ति करोति कृत्वा
द्रष्टुम्
तुमुन् तुमुन् अस्ति द्रष्टुम् त्वान्तरूपं
दृष्टवान्
हा भगिनी समीचीनं तत्र किम् अस्ति त्वान्तरूपम् अपि कृतवान् कृत्वा कृतवान् दृष्ट्वा दृष्टवान् किन्तु अतः त्वान्तरूपमपि तत्र भूतकालरूपं यत् वयं अतीतवन्तः तत्र कृतवान् पठितवान् इति तत्र पठित्वा पठितवान् इति तादृशम् अस्ति किन्तु कृतवान् कृत्वा कृतवान् किन्तु तत्र कर्तुम् इति भवति तुमुन् रूपं कर्तुम् अस्ति तत्र तद् समीपं बहु समीपम् अस्ति एतत् लृट्लकाररूपस्य कृते अपि दृष्ट्वा अस्ति त्वान्तरूपं तुमुन् रूपं किम् अस्ति
द्रष्टुं
हा द्रक्ष्यसि इति अतः तत्र तुमुन् रूपं बहु समीचीनम् अस्ति बहु समीपम् अस्ति लृट्लकारस्य अस्तु तर्हि अन्यत् अग्रे कः तत्र मधुसूदन महोदय अग्रे
महोदय कौरवाः पृथक् पृथक् शङ्खान् धमन्ति कौरवाः पृथक् पृथक् शङ्खान् धमिष्यन्ति
हा एतत् किञ्चित् विशेषरूपम् अस्ति महोदय तत्र तत्र मा इति प्रायशः धातुः अस्ति इति मन्ये तत्र कोऽपि जानाति वा एतत् विशेषरूपम् इति स्मरामि किन्तु तत्र
धंस्यन्ति
न धंस्यन्ति इति अस्ति वा अहं न स्मरामि तत्र विशेषरूपम् इति चिन्तयामि किन्तु तत्र प्रायशः किन्तु धातु किम् इति ध्मा इति वा न न अतः ध्मास्यति इति प्रायशः भवति
ध्वास्यति
अतः तत्र किञ्चित् विशेषरूपम् अस्ति महोदय ध्मास्यति इति भवति रूपम् एकवारं वदतु महोदय बहुवचने किं भवति
कौरवाः पृथक् पृथक् शङ्खान् ध्मास्यन्ति
ध्मास्यन्ति हा समीचीनं महोदय हा तत्र एतद् रूपं न दत्तम्
अस्ति महोदय तत्र
ध्मा ध्मा इति मन्ये भगिनि
ध्मास्यन्ति
हा ध्मास्यन्ति इति एकवारं तत्र अष्टाध्यायी दृष्टवन्तः वा कोऽपि अस्तु अस्तु समीचीनं धन्यवादः अस्तु ध्मा दातु अस्तु समीचीनं धन्यवादः भगिनि अस्तु न स्मृतवान् तत् अस्तु अस्तु अग्रे रघुपतिमहोदय
युवं ध्यानेन हृदये ईश्वरं पश्यतः पश्यतः इति मध्यमपुरुषद्विवचनम् अस्ति अतः युवां ध्यानेन हृदये ईश्वरं द्रक्ष्यसि द्रक्ष्यतः
द्रक्ष्यतः इति समीचीनं महोदय अस्तु श्रीप्रिया भगिनी अग्रे
यूयं निमित्तमात्रं भवथ यूयं निमित्तमात्रं भविष्यथ
भविष्यत अस्तु भगिनि समीचीनं तत्र अन्यद् रूपं किं भवति एकवचने
निमित्तमात्रं भविष्यसि युवां निमित्तमात्रं भविष्यतः
यूयं
निमित्तमात्रं भविष्यथ
भविष्यत् अस्तु समीचीनं भगिनि अस्तु बानचतनी महोदय अग्रे षोडश महोदय महोदय न सम्यक्तया न श्रूयते महोदय अस्तु सः प्रायः पुनरागच्छति महोदय न सम्यक्तया न श्रूयते महोदय अस्तु उषा भगिनी अग्रिमं करोति वा
आं महोदय लोके दैवम् आसुरम् इति द्वौ विभागौ स्तः सः अस्ति सः सन्ति अस्ति लोके दैवम् आसुरम् इति द्वौ विभागौ भविष्यतः
हा तत्र अस् धातोः अपि भू धातोः भविष्यत्कालरूपम् एव भवति तत्र अस् धातोः भविष्यत्कालरूपम् इति भवति इति तस्य एव स्वीकुर्मः सत् समीचीनं भगिनि बालचितनि महोदय नमस्कारः
हरि ओं महोदय प्रत्यागच्छामि कथमस्ति महोदय
इदानीं समीचीनमस्ति इदानीं समीचीनमस्ति अस्तु अग्रिमं करोति वा सप्तदश योगिनः
योगिनः कथं कार्यं कुर्वन्ति योगिनः कथं कार्यं करिष्यन्ति
हा समीचीनं महोदय समीचीन्ति समीचीनं हा अस्तु अग्रे वेणुगोपाल् महोदय
नराः अनिच्छन्तः पापं करन्ति नराः अनिच्छन्तः पापं करिष्यन्ति
हा अनिच्छन्तः इति अवगच्छति वा महोदय
न महोदय
कोऽपि अन्य कोऽपि वदति वा अनिच्छन्तः इति इत्युक्ते किम् इति अनिच्छन् न इच्छति तत्र अनिच्छन् पठन् इति अहं पठन् गच्छामि इति अनिच्छन् अनिच्छन्तौ अनिच्छन्तः इति बहुवचने ते न इच्छन्ति किन्तु पापं चरन्ति कुर्वन्ति इति. अस्तु,
अग्रे समासः महोदय. किं समासः महोदय तत्?
न जानामि महोदय. केवल अनिच्छन्ति, अनिच्छन्ति तत्र अन् इच्छन् तत्र प्रायशः उपसर्ग एव अस्ति इति.
रघुपति महोदय श्रोतुं न शक्यते महोदय सम्यक्.
महोदय एकः प्रश्नः
वदतु भगिनि.
पठन् इति किं रूपं?
शत्रन्तरूपम् इति वदामि भगिनि, शत्रन्तरूपम् इति. पठन् इति यथा कार्यद्वयं भवति, पठामि गच्छामि, पठन् गच्छामि इति कार्यद्वयम्.
अस्तु अस्तु महोदय, धन्यवादः.
अत्र पठन् इति पुल्लिङ्गे पठन् पठन्तो पठन्तः, स्त्रीलिङ्गे पठन्ति इति भवती शब्दवत् भवति. पठन्ति इति दीर्घ इकारः, क्रियापदवत् अस्ति किन्तु दीर्घ इकारः भवति. पठन्ति
श्रूयते वा
इदानीं? श्रूयते महोदय. इदानीं श्रूयते महोदय. अस्तु, अरुणा भगिनी प्रश्नः आसीत् वा तत्र?
न.
भवती किमपि वक्तुम् इष्टवती तत्र, वदतु भगिनी.
न न, अनिच्छन्तः अनिच्छन् इच्छन् न इच्छन् अनिच्छन् इति भवति.
सत्यं सत्यम्. अस्तु, तत्र समासस्य नाम उक्तवती वा भवती? नञ् तत्पुरुष समासः. अस्तु भगिनि, समीचीनं, धन्यवादः. अस्तु, अग्रे मधुसूदन महोदय.
भवन्तः अनुद्वेगकरं वाक्यं वदन्ति.
अनुद्वेगकरं
भवन्तः अनुद्वेगकरं वाक्यं वदन्ति. भवन्तः अनुद्वेगकरं वाक्यं वदिष्यन्ति.
वदिष्यन्ति, समीचीनं महोदय. अनुद्वेगम् उद्वेगम् इत्युक्ते
उद्वेगं
एक्सैट् अथवा ट्रबल्
एक्सैट्मेण्ट्.
किन्तु तद् न करणीयं, तादृशवाक्यं न वदनीयं. कीदृशवाक्यम्? उद्वेगकरं वाक्यं तद् मास्तु, अतः अनुद्वेगकरं वाक्यं वदन्ति इति. अस्तु, उद्वेगम् उद्वेगकरं, यत् उद्वेगं करोति तद् उद्वेगकरं, वाक्यम् उद्वेगं करोति इति कृत्वा उद्वेगकरं वाक्यं, किन्तु तद् नास्ति अत्र अनुद्वेगकरं वाक्यम् इति अत्र. अस्तु, रघुपतिमहोदय अन्तिमम्.
यूयं कर्मयोगाभ्यास कर्मयोगाभ्यासं कुरुत इति अस्ति. कुरुत इति मध्यमपुरुष बहुवचन. यूयं कर्मयोग अभ्यासं करिष्यथ.
करिष्यथ, समीचीनं महोदय. अस्तु अस्तु, समीचीनं. तत्र तत्र लृट्रकारस्य रूपं सर्वे अतीतवन्तः इति मन्ये. अस्तु, तत्र द्वितीय अभ्यासः अपि कृत्वा तदनन्तरम् अग्रे कथा अस्ति, सा तां कथां पठामः. तत्र द्वितीयाभ्यासः सुलभः एव अस्ति. तत्र श्रीप्रिया भगिनी आरम्भं करोति वा तत्र?
आम् महोदय. यथोदाहरणं प्रश्नस्य उत्तरं लिखत. भवति श्वः किं खादिष्यति? अहं श्वः खादिष्यामि
इति. अस्तु, इदानीम् अग्रिमं.
प्रातः कदा उत्थास्यति? प्रातः अहं प्रातः सार्धपञ्च पञ्चवादने उत्थास्यामि.
हा उत्थास्यामि, समीचीनं भगिनि. अस्तु, हा भानुचेतनी महोदय अग्रे.
महोदय,
अहं प्रश्नं पृच्छामि, तत्र भवान् श्वः कुत्र गमिष्यति?
अहं
श्वः
किमपि वदामि वा महोदय?
केवलं तत्र केवलम् अभ्यासार्थं अभ्यासार्थम्
अहं श्वः मन्दिरं गमिष्यामि.
हा समीचीनं महोदय, तावदेव. हा अस्तु, उषा भगिनी, भवती श्वः मध्याह्ने कुत्र गमिष्यति?
मध्याह्ने अहं
श्वः मध्याह्ने
अहम् आपणं गमिष्यामि.
समीचीनं भगिनि. अस्तु, वेणुगोपाल महोदय, श्वः भवान् श्वः सायङ्काले किं करिष्यति?
श्वः अहं सायङ्काले पाकं करिष्यामि.
अस्तु, समीचीनं. शुभा भगिनी, भवती श्वः गृहं कदा आगमिष्यति?
अहं श्वः गृहं मध्याह्ने आगमिष्यामि.
समीचीनं भगिनी. अरुणा भगिनी, भवती भोजनं कदा स्वीकरिष्यति श्वः?
अहं श्वः भोजनं अष्टवादने स्वीकरिष्यामि.
समीचीनं भगिनि. मधुसूदन महोदय, अग्रिमं, भवान् श्वः अल्पाहारे किं पास्यति?
अहं श्वः अल्पाहारे उत्तप्पं खादिष्यामि.
न पास्यति, किं पास्यति, पास्यसि पास्यम् इति खादति इति नास्ति, समीचीनं महोदय. श्वः अहम् अल्पाहारे
दुग्धं पास्यामि.
समीचीनं महोदय. अस्तु, रघुपति महोदय, तत्र भवान् श्वः किं सायङ्काले किञ्चित् क्रेष्यति?
अस्तु, अहं श्वः सायङ्काले किञ्चित् मधुरं क्रेष्यामि.
हा अस्तु महोदय, अस्तु. हा अन्तिमं, तत्र श्रीप्रिया भगिनी, भवती एव अन्तिमं करोतु. तत्र भवती श्वः किं सङ्गीतं श्रोष्यति?
श्वः अहं कर्णाटकसङ्गीतं श्रोष्यामि.
समीचीनं भगिनि. अस्तु अस्तु, तर्हि तत्र श्लोकाः सन्ति, अपि एकमेव अभ्यासम् एकः एव अभ्यासः अस्ति, तद् अग्रिमे वर्गे पश्यामः यदि समयः अस्ति चेत्. किन्तु अद्य एतद् एतां कथां पठामः. तत्र भविष्यत्कालस्य लृट् लकारस्य रूपाणि, तत्र प्रयोगः कीदृशः भवति इति पश्यामः. अस्तु, तर्हि तत्र वेणुगोपाल महोदय तत्र आरम्भं करोति वा?
आम् महोदय,
महोदय क्षम्यतां महोदय. यदा अद्य सायङ्काले अहं किमपि कार्यं करिष्यामि, तत्र
द्वयमपि साधु भगिनि, करोमि सायङ्काले अहम् एतत् कार्यं करोमि अपि, अथवा एतत् कार्यं करिष्यामि, द्वयमपि साधु भगिनि. किन्तु श्वः अस्ति चेत् तत्र निश्चयेन करिष्यामि एव भवति. किन्तु अद्यतन अस्ति चेत् तत्र मध्याह्ने अहं करिष्यामि अथवा करोमि, द्वयमपि साधु. अस्तु, वेणुगोपाल महोदय.
आं महोदय, तदा किं किं भविष्यति? सावधानतया एतां कथां पठत. सीतायाः अन्वेषणार्थम् आञ्जनेयः
सीतायाः
अन्वेषणार्थम् आञ्जनेयः समुद्र
लङ्घनं
कृत्वा लङ्काम् आगतवान्। तत्र सर्वेषु भवनेषु सीतायाः अन्वेषणं कृतवान्, सीतायाः अन्वेषणं कृतवान् परन्तु सीतां न दृष्टवान्। तदा निराशतया सः एवं चिन्तयति, यदि अहं
सीतां
दृष्ट्वा एक अदृष्ट्वा एव किष्किन्धा गमिष्यामि, किष्किन्धां गमिष्यामि तर्हि कः पुरुषार्थः साधितः भविष्यति? सुग्रीवः तदा मां किं वा वदिष्यति?
धन्यवादः महोदय, धन्यवादः, अस्तु धन्यवादः महोदय, अस्तु इदानीं तत्र शा भगिनी अग्रे पठति वा?
आं महोदय। अन्ये वानराः अपि किं वा वदिष्यन्ति, अहम् अपि सीता न लब्धा इति रामं कथं वा वदिष्यामि? यदि अहं तथा वदिष्यामि तर्हि रामः प्राणा त्यक्ष्यति, तदा लक्ष्मणः अपि मरिष्यति। तां वार्तां श्रुत्वा भरतः शत्रुघ्नः च प्राणान् त्यक्ष्यतः।
ततः पुत्रशोकेन कौशल्या सुमित्रा कैकेयी चापि मरिष्यन्ति। रामस्य मरणं ज्ञात्वा सुग्रीवः प्राणान् न धरिष्यति। ततः तस्य पत्नी रूमा वालिपत्नी तारा च प्राणान् न धरिष्यतः। तत्पश्चात् कुमारः अङ्गदः मरणं प्राप्स्यति। तदा तस्य प्रियाः वानराः दुःखेन मुष्टिभिः मस्तकान् ताडयिष्यन्ति, प्राणत्यागं च करिष्यन्ति।
धन्यवादः भगिनि, अस्तु अग्रे अरुणा भगिनि।
के अपि वानराः ततः क्रीडासुखं न अनुभविष्यन्ति, ते शिलाग्रेभ्यः अधः पतिष्यन्ति, विषं वा पास्यन्ति, उपवासव्रतं वा आचरिष्यन्ति। एवं सम्पूर्णः रघुवंशः वानरवंशसत्पालनवंशश्च विनक्ष्यतः।
विनक्ष्यतः समीचीनं भगिनि, अस्तु अग्रे तत्र रघु मधुसूदन महोदय पठति वा?
महोदय, अतः अहं सीताम् अदृष्ट्वा इतः किष्किन्धान् न गमिष्यामि, यतः अहं सुग्रीवं द्रष्टुं न शक्नोमि। क्षम्यताम्, यतः अहं सुग्रीवं द्रष्टुं न शक्ष्यामि, अहम् अत्रैव
वानप्रस्थव्रतं
ग्रहीष्यामि। ततः चितां प्रवेक्ष्यामि अथवा जलं प्रवेक्ष्यामि, तदा मम शरीरं मृगाः काकाः वा भक्षयिष्यन्ति, अथवा अहं तापसः भविष्यामि, अत्रैव जीविष्यामि नैव प्रतिगमिष्यामि। एवं बहुविधं चिन्तनं कृत्वा अन्ते आञ्जनेयः अहम् अशोकवने अन्वेषणं न कृतवान्, तत्रापि करोमि इति निश्चयं कृत्वा अशोक अशोकवनं गच्छति तत्र सीतां च पश्यति
हा समीचीनं महोदय अस्तु सर्वेभ्यो धन्यवादः अस्तु अत्र तथा किं किं भविष्यति इत्युक्ते यदि तदा इत्युक्ते किम् अत्र तदा इति अस्ति अत्र शीर्षके तदा इत्युक्ते न न न यदा सः अशोकवनं गतवान् सः सीतां पश्यति तत्र किन्तु न दृष्टवान् किं किं भवति किं किं भविष्यति इति तस्य चिन्तनं तस्य मनसि के चिन्तनं किं तस्य मनसि किं किं चिन्तनम् इति अत्र दत्तमस्ति अस्तु तत्र तथा किं किं भविष्यति इति
चिन्तनं करोति
सत्यं भगिनि अस्तु अस्तु तर्हि तत्र पङ्क्तिशः पश्यामः इदानीं तत्र रघुपतिमहोदय आरम्भं करोति वा तत्र
यदि सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान् अन्वेषणार्थम् आगतवान् इति तावत्
आञ्जनेयः आगतवान्
आञ्जनेयः आगतवान्
कुत्र आगतवान्
लङ्काम् आगतवान्
लङ्काम् आगतवान्
उल्लङ्घनं समुद्रलङ्घनं कृत्वा आगतवान् किमर्थम् अन्वेषणार्थम्
सीतायाः सीतायाः अन्वेषणार्थं
तत्र सर्वेषु भवनेषु सीतायाः अन्वेषणं कृतवान् तत्र कुत्र तत्र लङ्कां सर्वेषु भवनेषु
तत्र लङ्कायां लङ्कायामेव
सीतायाः अन्वेषणं कृतवान्
तत्र सर्वेषु भवनेषु विशेषणविशेष
भवति सप्तमी विभक्तौ अस्ति अन्वेषणमिति कर्मपदमस्ति
समीचीनं
कृतवान् परन्तु सीतां न दृष्टवान् इति तत्रापि सीताम् इति कर्मपदम् अस्ति न दृष्टवान् क्रियापद अस्ति तदा निराशतया सः एवं चिन्तयति सः क्रियापद चिन्तयति कः चिन्तयति सः चिन्तयति सः आञ्जनेयः कथं चिन्तयति एवं चिन्तयति केन निराशतया कया निराशतया
इति तृतीयविभक्ति एकवचनं समीचीनं महोदय अस्तु धन्यवादः अस्तु अग्रे तत्र भानचेतनी महोदय अग्रे पठति वा
कथं
तत्र यदि अहं ततः
यदि अहं सीताम् अदृष्ट्वा एव किष्किन्धां गमिष्यामि
तावत् तत् भागं स्वीकरोतु प्रथमतया अहं गमिष्यामि
यदि अहं सीतां किष्किन्धां गमिष्यामि
किष्किन्धाम् इति किं भवति
कर्मपदं भवति
कर्मपदं समीचीनं किं कृत्वा अथवा न कृत्वा
सीताम् अदृष्ट्वा किष्किन्धां गमिष्यामि
किष्किन्धां गमिष्यामि किन्तु सीतायाः दर्शनं न प्राप्तम् इति भवति चेत् अतः अहं सीताम् अदृष्ट्वा एव किष्किन्धां गमिष्यामि यदि तद् भवति तर्हि इदानीं द्वितीयखण्डः
तर्हि कः पुरुषार्थः साधितः भविष्यति भविष्यति इति क्रियापदं महोदय
साधितः भविष्यति विशेषणविशेष्यभावो महोदय तत्र साधितः भविष्यति
न न साधितः इति पदम् क्रियापदं नास्ति महोदय तत्र साधितः पुरुषार्थः साधितः कः पुरुषार्थः साधितः भवति भविष्यति तत्र
कः भविष्यति
मया किं साधितः भवति पाठं पठितं पाठं पठितं पुस्तकम् इति तादृश साधितः कस्य साधनं
महोदय तत्र साधितः साधितः कृदन्तरूपं वा
तत्र
प्रत्ययः
पुस्तकं पठितम् अहं पुस्तकं पठामि पठितं पुस्तकं तादृश तत्र मया हा तादृशम् अस्ति सत्यं मया मया कः पुरुषार्थः साधितः भविष्यति सत्यं तादृश एव अस्ति सत्यं अहम् अहं किं 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 भगिनि
सिद्धधातु साधितः सिद्धधातु अथवा अन्यधातु
साधितः सिद्ध किन्तु प्रायश महोदय किञ्चित् उच्चैः वदतु तत्र
तदेव अहं चिन्तयामि महोदय सिद्ध्यति इति अस्ति साधि सिद्धेव
हा किन्तु तत्र प्रायश पठति पाठयति तादृश हा निच् निजन्तरूपम् इति तादृश किमपि अस्ति इति मन्ये किन्तु हा साधितः इति पुरुषार्थसाधितः इत्युक्ते तस्य फलं किं तेन किमपि न जातं खलु यदि एष आञ्जनेयः सीतां न पश्यति अतः एतत् सर्वं कृतवान् किन्तु तस्य किमपि फलं नास्ति खलु लङ्काम् आगतवान् समुद्रलङ्घनं कृतवान् सर्वं कृतवान् किन्तु तत्र किमपि फलं नास्ति अतः कोऽपि पुरुषार्थः न साधितः भवति इति तस्य चिन्तनं साधदातु अस्तु हा साध् अस्तु धन्यवादः महोदय हा साधातु अस्तु हा सर्वे अवगच्छन्ति वा तत्र कः पुरुषार्थः साधितः भविष्यति इत्युक्ते किम् इति प्रश्नः अस्ति वा तत्र हा अस्तु अग्रे वदतु महोदय
सुग्रीवः तदा मां किं वा वदिष्यति वदिष्यति इति क्रियापदं सुग्रीवः वदिष्यति कं वदिष्यति मां वदिष्यति कदा वदिष्यति तदा गमनानन्तरं वदिष्यति
हा यदि सीताम् अदृष्ट्वा अहं गच्छामि तदा सुग्रीवः मां किं वा वदिष्यति अस्तु अग्रे
अन्ये वानराः अपि किं वा वदिष्यन्ति वदिष्यन्ति वानराः वदिष्यन्ति अन्ये वानराः सुग्रीवं त्यक्त्वा अन्ये वानराः किं वदिष्यन्ति
कं वदिष्यन्ति
आञ्जनेयः
आञ्जनेयं किं वा वदिष्यन्ति हा समीचीनं महोदय अस्तु अग्रे तत्र श्रीप्रिया भगिनी किञ्चित् वदति वा तत्र अग्रे
प्रयत्नं करोमि महोदय
अस्तु भगिनि
अहमपि सीता न लब्धा इति रामं कथं वा वदिष्यामि अहं वदिष्यामि इति क्रियापदं
कं वदिष्यामि
कं वदिष्यामि रामं वदिष्यामि किं वदिष्यामि सीता न लब्धा इति वदिष्यामि
कथं वदिष्यामि इति कथं वदिष्यामि तत्र सीता न लब्धा अथवा सीता लब्धा इत्युक्ते सीता लब्धा अस्ति इत्युक्ते तत्र विशेषणविशेष्यभावः तत्र सीता लब्धा किन्तु अत्र सीता न लब्धा अस्ति इति तत्र वाक्यं भवति तत्र तद् अहं कथं रामं वक्तुं शक्नोमि इति सः चिन्तयति. तत्र शक्नोति इति न, किन्तु किमस्ति तत्र शक्नोति इति पदस्य लृट् लकाररूपं किम् अस्ति?
शक्ष्यामि.
शक्ष्यामि, शक्ष्यामि इति, कथं शक्ष्यामि इति, इति समीचीनम्. अग्रे भगिनि वदतु भगिनि.
सीता न लब्धा, लब्धा पदं कथम् आगच्छति महोदय?
लब्धा, लब्धः इति, तत्र लब्धवान् इति कर्त्र्यर्थे, अहं लब्धवान्, अहं किमपि प्राप्तवान्, अहं किमपि लब्धवान्, किन्तु अहं पुस्तकस्य अन्वेषणं करोमि. पुस्तकम् अत्र नास्ति, पुस्तकं तत्रापि नास्ति, किन्तु अन्ते अहं पश्यामि, अस्तु अत्र पुस्तकमस्ति इति. इदानीम् अहं वदामि पुस्तकं लब्धम् इति.
लब्धः, लब्धा,
लब्धा इति, लब्धः इति पुल्लिङ्गे, लब्धा इति स्त्रीलिङ्गे. समीचीनम्, अस्तु. अग्रे श्रीप्रिया भगिनी.
यदि अहं तथा वदिष्यामि तर्हि रामः प्राणान् त्यक्ष्यति. त्यक्ष्यति इति क्रियापदं त्यजतः भविष्यत्काले.
त्यजति, त्यक्ष्यति.
यदि अहं तथा वदिष्यामि, कथं वदिष्यामि सीता न लब्धा इति वदिष्यामि चेत् रामः प्राणान् त्यक्ष्यति. कः प्राणान् त्यक्ष्यति? रामः प्राणान् त्यक्ष्यति.
तत्र किमर्थं प्राणान् इति बहुवचने दत्तमस्ति?
पञ्चप्राणाः सन्ति.
पञ्चप्राणाः सन्ति इति, पञ्चप्राणाः सन्ति इति, प्राणान् त्यक्ष्यति इति. समीचीनं भगिनि, अस्तु. अग्रिममपि करोतु भगिनि, श्रीप्रिया भगिनि.
तदा लक्ष्मणः अपि मरिष्यति. यदा सीता न लब्धा इति आञ्जनेयः मरिष्यति चेत् लक्ष्मणः अपि मरिष्यति.
तत्र यदि इति अस्ति चेत्, यदि इति अस्ति तत्र चेत् इति तस्य आवश्यकता नास्ति. यदि तर्हि अथवा चेत् तर्हि. वदतु भगिनि.
मरिष्यति वर्तमानकाले तस्य रूपं किं भवति?
म्रियते, किन्तु म्रियते तु
म्रियते किमर्थम्?
आत्मनेपदी अस्ति. एतत् मरिष्यति मृधातुः, तत्र किमस्ति? सत्यं सत्यं सत्यं. तत्र अन्यान् न मारयति, तत्र न स्मरामि भगिनि, द्रष्टव्यमस्ति तत्र. मृधातुः प्रायशः मृ एव धातुः अस्ति इति खलु, खलु
म्रियते.
किन्तु किमर्थं तत्र मरिष्यति इति?
केचन धातोः केवलं परस्य
न श्रूयते महोदय.
प्रायशः तदस्ति. अस्तु अस्तु महोदय.
धन्यवादः
महोदय. किन्तु महोदय तत्र तत्र केवलम् आत्मनेपदी धातु अथवा उभयपदी धातु भूत्वा तत्र लकारस्य परस्मैपदी धातु
न महोदय, अहं दृष्टवान् केचन धातवः सन्ति तत्र
लट् लकारे आत्मनेपदी धातुरूपम् अस्ति अपि.
आत्मनेपदी भवति, अन्यत् लकारे परस्मैपदी रूपं भवति इति.
अस्तु अस्तु अस्तु,
कतिचन धातवः सन्ति.
अस्तु अस्तु, एतत् एषः तादृशम् अस्ति. अस्तु अस्तु, समीचीनं. बहु उत्तम उदाहरणम् अस्ति, अतः मनसि स्थापनीयम् अस्ति एतत्. म्रियते मरिष्यति इति तद् किञ्चित् विशेषक्रियापदम् अस्ति इति. अस्तु समीचीनं. अस्तु, तत्र लक्ष्मणः अपि मरिष्यति, तदेव अन्या रीत्या वदतु भगिनि, सुक्रिया भगिनि. लक्ष्मणः अपि
कथं महोदय?
अन्यरीत्या सहे तदेव वाक्यम् अन्यरीत्या लक्ष्मणः अपि मरिष्यति इति लक्ष्मणः तदा लक्ष्मणः अपि रामवत् राम किं करोति
रामः लक्ष्मणः अपि प्राणान् त्यक्ष्यति
इति केवलं तत्र अभ्यासार्थम् अस्तु अग्रे तत्र शुभा भगिनी करोति वा किञ्चित् तत्र
आम् महोदय प्रयत्नं करोमि
अस्तु भगिनि
तां वार्तां श्रुत्वा भरतः शत्रुघ्नः च प्राणान् त्यक्षतः आञ्जनेयः सीतां न दृष्ट्वा आगच्छति इति वार्तां श्रुत्वा तां वार्तां विशेषणविशेष्यरूपमस्ति
तत्र वार्ताम् इति कर्मपदं वार्तां
न महोदयः कर्मपदम् इत्युक्ते
श्रुत्वा इति अस्ति
कर्मपदं
भरतः श्रुत्वा किं श्रुत्वा वार्तां श्रुत्वा खलु
वार्तां श्रुत्वा
तत्र कर्मपदमस्ति तां वार्ताम् इति तत् प्रथमविभक्तौ किं भवति तां वार्तां सा वार्ता समीचीनं भगिनि सा वार्ता भवति तां वार्तां श्रुत्वा
भरतः शत्रुघ्नः च प्राणान् त्यक्षतः ते त्यजतः इति
लट् लकारे अस्तु
तवपि त्यजतः
समीचीनं भगिनि अत्र तत्र प्राणान् त्यक्षतः इति स्थाने ते अपि तत्र लक्ष्मणः मरिष्यति इति तत्र अत्र भरतः
रामः लक्ष्मणः भरतः शत्रुघ्नः च प्राणान् त्यक्ष्यन्ति
एकं रूपं समीचीनम् अथवा मरिष्यन्तः प्राणान् त्यक्ष्यन्तः अथवा केवलं मरिष्यन्ति
ततः पुत्रशोकेन कौशल्या सुमित्रा कैकेयी च अपि मरिष्यन्ति
ततः इत्युक्ते तदनन्तरं एतत् किमपि भवति तदनन्तरं ततः इत्युक्ते रामलक्ष्मण भरतशत्रुघ्न तेषां मरणम्
एतेषां पुत्रः पुत्राणां मरणः भवति
तदा
पुत्रशोकेन एते मातरः अपि मरणं प्राप्नुवन्ति इति
प्राप्स्यन्ति
भविष्यत्काले
प्राप्स्यन्ति
रामस्य मरणं ज्ञात्वा सुग्रीवः प्राणान् न धरिष्यति यदा रामः मरणं प्राप्नोति इति वार्तां सुग्रीवः शृणोति चेत् सः अपि प्राणान् न धरिष्यति सः अपि मरिष्यति
इति प्राणान् त्यक्ष्यति इति स्थाने इदानीं न धरिष्यति इति समीचीनं
ततः तस्य पत्नी रूमा सुग्रीवस्य पत्नी रूमा वालिपत्नी तारा अपि च
वालिपत्नी इति तत्र पदद्वयं कुर्मः चेत् किं भवति तत्र यथा भवती
सुग्रीवस्य
पत्नी वालेः पत्नी
तारा अपि प्राणान् न धरिष्यतः
समीचीनं भगिनि एकं वाक्यं वद करोतु तदनन्तरम् अन्य कोऽपि करोति
आम् महोदय तत्पश्चात् कुमारः अङ्गदः मरणं प्राप्स्यति तत्पश्चात् इत्युक्ते
तत्र तदः तदा ततः तदा तत्पश्चात् सर्वं समानं
तत्पश्चात् कुमारः अङ्गदः अपि मरणं प्राप्स्यति
समीचीनं भगिनि अस्तु अग्रे तत्र अरुणा भगिनी वदति वा
तदा तस्य प्रियाः वानराः दुःखेन मुष्टिभिः मस्तकान् ताडयिष्यन्ति ताडयिष्यन्ति क्रियापदं के ताडयिष्यन्ति वानराः कीदृशाः वानराः प्रियाः वानराः कस्य प्रिया वानराः कस्य
तत्र तस्य इत्युक्ते कस्य
आञ्जनेयस्य
न न न तत्र प्रायशः तस्य तत्र
अङ्गदस्य
इति चिन्तयामि भगिनि तत्र सर्वदा तत्र सः अथवा इत्युक्ते तत्र अन्वयः पूर्वस्मिन् वाक्ये यः कर्तृपदमस्ति तत् अतः पूर्वस्मिन् वाक्ये कर्तृपदं किम् अस्ति अङ्गदः इति
दुःखेन ताडयिष्यन्ति कैः मुष्टिभिः मस्तकान्
ताडयिष्यन्ति
मस्तकान्
ताडयिष्यति तत्र प्रायशः वयं तृतीया विभक्ति तत्र अभ्यासपुस्तके कृतवन्तः किन्तु तत्र तृतीया विभक्ति गीतासोपने न कृतवन्तः अग्रे आयाति तत्र
दुःखेन
तत्र दुःखेन अस्ति अपि मुष्टिभिः अस्ति द्वयमपि तृतीयविभक्तिरूपमेव किन्तु तत्र किञ्चित् भेदः अस्ति तत्र भेदः कः इत्युक्ते तत्र मुष्टिभिः मस्तकान् ताडयिष्यन्ति मुष्टिभिः किं भवति माध्यमं भवति केन मस्तकान् अहं हस्तेन खादामि इति तत्र हस्तं माध्यमं भवति किन्तु दुःखः दुःखेन इति तद् भवति भावः अहं सन्तोषेण सङ्गीतं शृणोमि तत्र माध्यमं किमपि नास्ति माध्यमं तस्य वार्ता नास्ति तत्र भावस्य वार्ता अस्ति तत्र सन्तोषेण इति तादृश तत्र एकं रूपं तृतीयविभक्तिरूपं तत्र दुःखेन अस्ति भावविषयकम् अन्यत् तृतीयविभक्तिरूपम् अस्ति तत्र मुष्टिभिः मस्तकान् इति अतः तत्र द्वयमपि तृतीयविभक्ति किन्तु किञ्चित् भेदः अस्ति
कुमारः अङ्गदः मरणात् मरणं प्राप्स्यति
तदा एतत् सर्वे वानराः दुःखेन मुष्टिभिः मस्तकान् इत्युक्ते अस्तु ताडयिष्यन्ति अस्तु तदनन्तरं किं भवति
प्राणत्यागं च करिष्यन्ति
के करिष्यन्ति
त्यागं किं खां
न न के 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 करिष्यन्ति
के करिष्यन्ति वानराः करिष्यन्ति
वानराः अतः पूर्वस्मिन् वाक्ये कर्तृपदं वानराः इति आसीत् अतः वानराः करिष्यन्ति किं करिष्यन्ति प्राणत्यागं करिष्यन्ति तत् प्राणत्यागम् अन्यरीत्या वदतु तत्र
प्राणत्यागं
करिष्यन्ति अथवा मरिष्यन्ति अथवा प्राणान् न धरिष्यन्ति प्राणान् न धरिष्यन्ति इति अस्तु भगिनि सत्यं भगिनि सत्यं त्यक्ष्यन्ति इति समीचीनं भगिनि अग्रे अपि करोतु तत्र
के अपि वानराः ततः क्रीडासुखं न अनुभविष्यन्ति अनुभविष्यन्ति क्रियापदं के अनुभविष्यन्ति न अनुभविष्यन्ति वानराः किं न अनुभविष्यन्ति क्रीडासुखं न क्रीड अनुभविष्यन्ति
तत्र एकमपि के अपि वानराः इत्युक्ते कः
एकवानरः अपि न
एकवानरः अपि तस्मिन्
सर्वे वानराः
अपि न अनुभविष्यन्ति इति कोऽपि न अनुभविष्यन्ति इति अस्तु समीचीनं भगिनि क्रीडासुखं न अनुभविष्यन्ति अस्तु अग्रे
ते शिलाग्रेभ्यः अधः पतिष्यन्ति विश्वं वा पास्यन्ति उपवासव्रतं वा आचरिष्यन्ति
हा तत्र शिलाग्रेभ्यः इति तत्र पञ्चमी विभक्ति इति मन्ये तत्र शिलाग्रेभ्यः पञ्चमी विभक्ति अपि वयं न कृतवन्तः तदपि अग्रे भवति पञ्चमी विभक्ति अग्रे पञ्चमी एव अग्रिमविषयः तत्र शिलाग्रह शिलाग्रेभ्यः इति शिलाग्रेभ्यः शिलाग्रं गच्छन्ति शिलाग्रं गच्छन्ति इत्युक्ते अहं चिन्तयामि किं तत्र पर्वतस्य उपरि गच्छन्ति इति अथवा केवलं शिलाग्रेभ्यः शिलस्य उपरि तिष्ठ्वा स्थित्वा ते ततः अधः पतिष्यन्ति इति तादृशम् अपि
विषं वा पास्यन्ति
नो चेत्
उपवासव्रतं वा
आचरिष्यन्ति एकं शिलाग्रेभ्यः पतिष्यन्ति अथवा विषं पास्यन्ति द्वयमपि न करिष्यन्ति चेत् उपवासव्रतम् आचरिष्यन्ति ते अतः तत्र किं भवति सर्वे अपि मरिष्यन्ति सर्वे अपि मरिष्यन्ति एवम्
एवं सम्पूर्णः रघुवंशः वानरवंशः च विनङ्क्षतः
विनङ्क्ष्यतः तत्र रघुवंशः इत्युक्ते रामस्य वंशः तदपि नष्टः सः अपि नष्टः वानरवंशः अपि नष्टः सर्वे मरिष्यन्ति सर्वे वानराः मरिष्यन्ति अत्र अतः विनङ्क्ष्यतः इति अस्ति तत्र किमर्थं विनङ्क्ष्यतः इति अस्ति
द्विवचनरूपं
हा वंशद्वयम् अस्ति इति कृत्वा रघुवंशः एकं वानरवंशः अन्यत् अतः विनङ्क्ष्यतः इति जनाः तु अनेकाः सन्ति किन्तु वंशद्वयम् अस्ति इति कृत्वा विनङ्क्ष्यतः इति अस्तु समीचीनं अस्तु अग्रे मधुसूदन महोदय अग्रे पठति वा तत्र यत् भवान् पठितवान् तदेव
अतः विस्मृतवान् अतः अहं सीताम् अदृष्ट्वा इतः किष्किन्धां न गमिष्यामि अतः अहं अतः अहं सीताम् अदृष्ट्वा सीतां न दृष्ट्वा इतः किष्किन्धां न गमिष्यामि
इति सः निश्चितवान् अस्तु तत्र इतः इति अस्ति इतः इत्युक्ते किं
तत् लङ्केतः लङ्कतः
अस्तु नगरं नगरं लङ्कानगरम् इति स्वीकरोतु
लङ्कानगरतः न
नगरात् इतः इत्युक्ते फ्रम् हियर् इति सत्यं भगिनि सत्यं इतः अस्तु इतः किष्किन्धां
न गमिष्यामि
अग्रे
यतः अहं सुग्रीवं द्रष्टुं न शक्ष्यामि यतः अहं सुग्रीवं
यदि अहं किष्किन्धां गच्छामि यदि अहं किष्किन्धां गमिष्यामि तत्र सुग्रीवं सुग्रीवः तत्र अस्ति, किन्तु अहं सुग्रीवं द्रष्टुं न शक्ष्यामि शक्नोमि शक्ष्यामि वर्तमानकाले शक्नोमि.
మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్
కింటు బహు లృట్ లకారే
శక్ష్యామి యతః అహం సుగ్రీవం ద్రష్టుం నా శిక్ష్యామి. అహం అత్రైవ వానప్రస్థావనం
ఏకం ఖండం వానప్రస్థ
వ్రతం
व्रतम व्रतम अस्ति कीदृश व्रतम वानप्रस्थ व्रतम
अत्र अहम् अत्रैव
वानप्रस्थैव अत्रैव
अत्रैव वानप्रस्थ व्रतम ग्रहीष्यामि अहम् गृह्णामि अहम्
इत्युक्ते तादृश एतद् व्रतम् अहम् आचरामि तस्य
व्रतं करोमि
व्रतं करोमि इति तद् व्रतम् आचरामि करोमि ततः
ततः चितां प्रवेशयामि प्रवेक्ष्यामि चितां
चिताम् इत्युक्ते
चिताम् इत्युक्ते
अग्नि
ओ चिता चिते अग्नि अग्नि
तादृश पायर् इति चितां प्रवेक्ष्यामि
ततः चितां प्रवेक्ष्यामि अथवा जलं प्रवेक्ष्यामि यदि अहं जलं प्रवेक्ष्यामि
सीताम् अदृष्ट यदि सीतायाः दर्शनं न भवति यदि दर्शनं न प्राप्नोमि तर्हि अहं किं करोमि इति स चिन्तयति अहं वानप्रस्थव्रतं तस्य करिष्यामि तस्य ग्रहणं करिष्यामि तदनन्तरं किं भवति चितां प्रविक्ष्यामि
अथवा
जलं प्रविक्ष्यामि
तदनन्तरं जलं
जलम् इत्युक्ते समुद्रे मरणम् अथवा वह्नौ मरणम् अग्नौ मरणम्
तदा मम शरीरं मृगाः काकाः वा भक्षयिष्यन्ति तदनन्तरं मम शरीरं मृगाः अन्यानि मृगाः काकाः च वा अथवा अहं तापसः भविष्यामि अथवा
ततः चितां प्रविष्यामि अथवा जलं प्रविष्यामि अथवा तापसः भविष्यामि तापसः भविष्यामि इत्युक्ते तपस् करोमि अत्रैव
अथवा तापसः भविष्यामि अत्रैव जीविष्यामि अत्रैव अजीवनं करोमि न एव प्रतिगमिष्यामि
इत्युक्ते किष्किन्धातः आगतवान् अत्र प्रतिगमनम् इत्युक्ते रिटर्न् प्रतिगमनं न करोमि अहं नैव
गमिष्यामि
समीचीनं महोदय सर्वम् अवगतम् तत्र अस्तु तत्र प्रश्नः अस्ति वा अत्र अस्तु अस्तु अतः श्रीप्रिया भगिनी अन्तिमं भागं करोति वा श्रीप्रिया भगिनी अस्ति वा
अस्मि महोदय
करिष्यामि
एवं बहुविधं चिन्तनं कृत्वा अन्ते आञ्जनेयः अहम् अशोकवने अन्वेषणं न कृतवान्. आञ्जनेयस्य बहुविधानि चिन्तनानि आसन्. अन्ते सः चिन्तयति अहम् अशोकवने न अन्वेषणं न कृतवान्.
अहं सर्वत्र अन्वेषणं कृतवान् किन्तु अशोकवने न कृतवान् इति.
तत्रापि गत्वा अन्वेषणं करोमि इति सः चिन्तयति.
इति निश्चयं कृत्वा
अशोकवनं गच्छति. तत्र सीतां च पश्यति.
इदानीं सम्यक् अस्ति. सीतां सः पश्यति, अतः एतत् सर्वं न भविष्यति. अस्तु, अतः रघुवंशः अपि वानरवंशः इदानीमपि अस्ति इति, तस्य विनाशं न जातम् इति. समीचीनं भगिनि, धन्यवादः. अस्तु, तत्र प्रश्नः अस्ति वा? सर्वे अवगच्छन्ति वा?
आं महोदय.
बहु समीचीना कथा अस्ति इति मन्ये. तत्र भविष्यत् लृट् लकारस्य प्रयोगः बहु समीचीनम् अस्ति इति मन्ये. अतः तत्र एकमेव पुटम् अस्ति, किन्तु बहु सम्यक् अस्ति. अस्तु, तर्हि अत्र निमिषद्वयम् अस्ति. तत्र प्रथम अभ्यासं कर्तुं शक्नुमः इति मन्ये. तत्र पश्यामः. तत्र भानुचेतनी महोदय अस्ति वा?
महोदय, अहं करोमि महोदय, अहं न कृतवती.
अस्तु भगिनि, उषा भगिनि, अस्तु अस्तु अस्तु, वदतु भगिनि. तत्र प्रथम अभ्यास, प्रथमप्रश्नः.
एतेषां प्रश्नानाम् उत्तरं लिखत. पुत्रशोकेन काः मरिष्यन्ति? पुत्रशोकेन कौसल्या, सुमित्रा, कैकेयी च अपि मरिष्यन्ति.
समीचीनम्, अस्तु. सुभद्रा, शुभा भगिनि.
आम् महोदय. वानराः दुःखेन किं करिष्यन्ति? वानराः दुःखेन शिलाग्रेभ्यः अधः पतिष्यन्ति, विषं वा पास्यन्ति, उपवासव्रतं वा आचरिष्यन्ति.
समीचीनं भगिनि, अस्तु. मधुसूदन महोदय,
अन्यदपि अस्ति?
अन्यदपि अस्ति भगिनि. तत्र दुःखेन मुष्टिभिः मस्तकः,
मुष्टिभिः
किन्तु द्वयमपि साधु एव भगिनि. द्वयमपि दुःखेन एव करिष्यन्ति खलु, अतः मधुसूदन महोदय अग्रिमम्.
आञ्जनेयः किमर्थं लङ्कां गतवान्? आञ्जनेयः अत्र
प्रथमवाक्यं पश्यतु. तत्र
सीतायाः अन्वेषणं आञ्जनेयः लङ्काम् आगतवान्.
किमर्थं गतवान् आञ्जनेयः
सीतायाः अन्वेषणम्
अन्वेषणार्थं कर्तुं. समीचीनं महोदय, अन्वेषणं कर्तुं लङ्कां गतवान्. समीचीनं महोदय, समीचीनं. श्रीप्रिया भगिनी अग्रे.
रामस्य वंशः कः? रामवंशः, रघुवंशः.
रघुवंशः अस्ति. बालचेतनी महोदय अस्ति वा? न श्रूयते महोदय.
आं महोदय.
अन्तिमं तत्र अन्ते आञ्जनेयः किं करोति
महोदय?
अन्ते आञ्जनेयः किं करोति?
आञ्जनेयः
अशोकमने
न महोदय न प्रतिगमिष्यामि इति.
न तदनन्तरम् अन्ते. एतत् बहुविधं चिन्तनं कृत्वा अन्ते आञ्जनेयः
अहम् अशोकवने अन्वेषणं
करोमि.
महोदय, अन्ते आञ्जनेयः अशोकवने अन्वेषणं करिष्यामि इति निश्चयं कृतवान्.
कृत्वा अशोकवनं गच्छति तत्र
सीतां
च पश्यति. इदानीं समाप्तम्. अस्तु, तर्हि समयः अपि जातः. यदि अन्य कोऽपि प्रश्नः नास्ति चेत् विरमाम. अस्तु, तर्हि अग्रिमवर्गे मिलामः. सर्वेभ्यो नमस्कारः, धन्यवादः. अग्रिमवर्गे मिलामः.
धन्यवादः.
नमस्कारः.
धन्यवादः.
धन्यवादः.